ओम नमो भगवते वासुदेवाय। अथ षष्ठोऽध्यायः। प्रह्लाद उवाच, कौमाराचरेत्प्राज्ञो धर्मान् भागवतानिह, दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम्। यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम्, यदेष सर्वभूतानां प्रियात्मेश्वरः सुहृत्। सुखमैन्द्रियकं दैत्यादेहयोगेन देहिनां, सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः। तत्प्रयासो न कर्तव्यो यथा आयुर्व्ययः परम्, न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम्। ततो यतेत कुशलः क्षेमाय भयमाश्रितः, शरीरं पौरुषं यावन्न विपद्येत पुष्कलम्। पुंसो वर्षशतं यायुस्तदर्धं चाजितात्मनः, निष्फलं यदसौ रात्र्यां शेतेन्धं प्रापितस्तमः। मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः, जरयाग्रस्तदेहस्य यात्यकल्पस्य विंशतिः। दुरापूरेण कामेन मोहेन च बलीयसा, शेषं गृहेषु सक्तस्य प्रमत्तस्यापयातिः। को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः, स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम्। कोऽन्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः, यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक्। कथं प्रियाया अनुकम्पिताया सङ्गं रहस्यं रुचिरांश्च मन्त्रान्, सुहृत्सु च स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः। पुत्रान् स्मरन् सा दुहितृहृदय्या, भ्रातॄन् स्वश्रीर्वा पितरौ च दीनौ। गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्या पशुभृत्यवर्गान्, त्यजेत कोशस्कृतिवेहमानः कर्माणि लोभादवितृप्तकामः। औपस्य दैव्यं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः। कुटुम्बपोषाय वियन्निजायुर्न बुध्यतेऽर्थं विहतं प्रमत्तः, सर्वत्र तापत्रय दुःखितात्मा निर्विद्यते न स्वकुटुम्ब रामः। वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः, प्रेत्येह चाथाप्यजितेन्द्रियस्तदशान्तकामो हरते कुटुम्बी। विद्वानपीत्थं दनुजा कुटुम्बं पुष्णं स्वलोकायन कल्पते वै, यस्वीयपारक्य विभिन्नभावस्तमः प्रपद्येत यथा विमूढः। यतो न कश्चित् क्व च कुत्रचिद्वा दीनस्वमात्मानमलं समर्थः, विमोचितुं कामदृशां विहार क्रीडा मृगो यन्निकटो विसर्गः। ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु, उपेत नारायणमादिदेवं समुक्तसङ्गैरिषितोपवर्गः। न यच्युतं प्रीणयतो बह्वायासो सुरात्मजाः, आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः। परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु, भौतिकेषु विकारेषु भूतेष्वथ महत्सु च, गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा, एक एव परो ह्यात्मा भगवान् ईश्वरो व्ययः। प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयं व्याप्य व्यापकनिर्देश्यो यनिर्देश्यो विकल्पितः, केवलानुभवानन्दस्वरूपः परमेश्वरः। माययान्तर्हितैश्वर्य ईयते गुणसर्गया, तस्मात् सर्वेषु भूतेषु दयां कुरुत सहृदम्। आसुरं भावमुन्मुच्य ययातुष्यत्यथोक्षजः, तुष्टे च तत्र किमलभ्यमनन्ताद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः। धर्मादयः किमगुणेन च काङ्क्षितेन सारञ्जुषां चरणयोरुपगायतां नः। धर्मार्थकामैति योऽभिहितस्त्रिविर्ग, ईक्षात्रयी नयतमौ विविधा च वार्ता। मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः। ज्ञानं तदेतदमलं दुर्वापमाः नारायणो नरसखः किल नारदाय, एकान्तिनां भगवतस्तदकिञ्चनानां पादारविन्दरजसा प्लुतदेहिनां स्यात्। श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतं, धर्मं भागवतं शुद्धं नारदाद्देव दर्शनात्। दैत्यपुत्रा ऊचुः, प्रह्रादत्वं वयं चापि नर्तेन्यं विद्महे गुरुम्, एताभ्यां गुरुपुत्राभ्यां बालानामपि ईश्वरौ। बालस्यान्तः पुरस्थस्य महत्सङ्गो दुरन्वयः, छिन्दिनः संशयं सौम्य स्याच्चेत् विश्रम्भकारणम्। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादानुचरिते षष्ठोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्। यथा त्वच्चरणां भोजे रति स्यादनपायिनी।